ओम नमो भगवते वासुदेवाय त्रयोदशोध्याय प्रकृति पुरुष विवेक योग अर्जुन उवाच प्रकृति पुरुष क्षेत्र क्षेत्रज्ञमेव च एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव श्री भगवान उवाच इदं शरीरं कौन्तेय क्षेत्रमित्तविधीयते एतद् जो व्यतीतं प्राहु क्षेत्रज्ञ इति तद्विद क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्र क्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम तत्क्षेत्रं यच्च यादृक् च यद्विकारी यतश्च यत् स च जो यत्प्रभावश्च तत्समासेन मे शृणु ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्र पदश्चैव हेतुमद्भिर्विनिश्चितैः महाभूतान्नहंकारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकञ्च पञ्चचेन्द्रियगोचराः इच्छाद्वेषसमं सुखं दुःखं संघातश्चेतनाधृतिः एतत्क्षेत्रं समासेन सविकारमुदाहृतम् अमानित्तम् अदम्भित्तम् अहिंसा कांतिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह इन्द्रियार्थेषु वैराग्यम् अनहंकार एव च जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम् आसक्तिरनभिस्वङ्ग पुत्रद्रारगृहादिषु नित्यं च समचित्तत्वं मिष्टानि स्तूपपत्तिषु मयि चानन्यजोगेन भक्तिरब्रह्मचारिणी विविक्तदेशसेवितम् आरतिर्जनसंसदि अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोन्नथा ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्तामृतनुस्मृते अनादि मत्परं ब्रह्म न सत्तन्नाशदुच्यते सर्वतः पाणिपादं तत् सर्वतः किशिरोमुखं सर्वतः श्रुतिमान् लोके सर्वमावृत्य तिष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च बहिरन्तश्च भूतानाम् आचरं चरमेव च सुखोत्तात् तदभिज्ञेयं दूरस्थं चान्तिके च तत् अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्तृ च तज्ज्ञेयं ग्रहशिष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य अधिष्ठितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयञ्चोक्तं समासतः मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते प्रकृतिं पुरुषं चैव विद्धनादि उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् कार्यकारणकर्तृत्वे हेतु प्रकृतिरुच्यते पुरुषसुखदुःखानां भक्तित्वे हेतुरुच्यते पुरुषा प्रकृतोस्थैः भुङ्क्ते प्रकृतिज्ञानगुणान् कारणं गुणसङ्गस्य सदसज्जोनिजन्मसु उपद्रष्टानुमन्ता च भर्ता भुक्ता महेश्वरः परमात्मेति चापुक्तो देहेऽस्मिन् पुरुषः परः य एवं व्यक्ति पुरुषं प्रकृतिं च गुणैस्सह सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मात्मनमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे अन्ये तेवमजानन्त श्रुतान्येभ्य उपासते तेऽपि चात्तरन्त्येव मृत्युं श्रुतिपरायणाः जावत संजायते किंचित सत्यं स्थावर जंगमं क्षेत्र क्षेत्र संयोगात् तद्विद्धि भरतर्षभ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत् स्वविनश्यन्तं जः पश्यति स पश्यति समं पश्यन् हि सर्वत्र समवस्थितमीश्वर न हि न स्वात्मनात्मानं ततो जाति पराङ्गतिं प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानम् अकर्तारं स पश्यति यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तथा तदा अनादित्तात् निर्गुणत्वात् परमात्मायमव्यय शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं सौख्यादाकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते यथा प्रकाशयत्येकः कृष्णं लोकमिमं रविः क्षेत्रं क्षेत्री तथा कृष्णं प्रकाशयति भारत क्षेत्र क्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमुखं च ये विदुर्जान्ति ते परम् इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः।